अस्तु, तर्हि न्यायविषयस्य अवलोकनवर्गः प्रचलन् अस्ति. वर्गे आरम्भतः विद्याधर्याः पुनरावलोकनं भवति इति वयं जानीमः एव. तर्हि गतवर्गे वयं विद्याधर्याः उद्देशग्रन्थे स्मः. उद्देशग्रन्थः इति वदन्ति, यतोहि ग्रन्थः इत्युक्ते अत्र वाक्यानां समूहः इति, तावदेव भागः इति चिन्तयितुं शक्यते. अत्र उद्देशविभागे केवलं नाम्ना सङ्कीर्तनं भवति पदार्थानाम् इति वयं जानीमः एव. तत्र पदार्थस्य लक्षणं किं, केन कारणेन तादृशनामकरणं भवति इति सर्वम् अग्रिमभागे भवति. उद्देशविभागे नाम्ना सङ्कीर्तनम् अथवा नाम्ना उल्लेखः भवति पदार्थानां. तत्र वयं सप्तपदार्थान् दृष्ट्वा, तत्र सप्तपदार्थेषु द्रव्यगुणकर्मसामान्यम् इत्यावत् परिचयं प्राप्तवन्तः. तत्र सामान्यम् इत्यस्मिन् परम् अपरं च इति द्विविधं सामान्यम् इत्यावत्पर्यन्तं वयं प्राप्तवन्तः गतवर्गे. सामान्यं परमपरं द्विविधं, परमपरं चेति द्विविधं सामान्यम् इति तर्कसङ्ग्रहस्य वाक्यमस्ति वस्तुतः. किन्तु सम्प्रदायरीत्या यदि वयम् अवगन्तुम् इच्छामः सामान्यम् इत्युक्ते किम् इति अवगन्तुम् इच्छामश्चेत् उदाहरणानि स्वीकृत्य अवगन्तुं शक्नुमः. अत्र तु गोः उदाहरणं दत्तमासीत्. एकः बालकः गां दृष्ट्वा गां पश्यति, माता इयं गोः इति वदति. तदनन्तरम् अपरम् एकां गां दृष्ट्वा इयमपि गोः इति सः अभिजानाति. कथं जानाति इत्युक्ते, तत्र गोशरीरे साम्यं दृष्ट्वा, गोत्वम् इति कश्चन धर्मः अस्ति इति दृष्ट्वा सः प्रत्येकं गाम् अभिजानाति. तदेव अत्र उक्तम् अन्ते, सामान्यपदार्थ अस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्. नाम यदि सः बालकः सामान्यं गोत्वम् इति सामान्यम् अथवा जातिः अस्ति इति न जानाति चेत्, एकां गां दृष्ट्वा अपरामपि दृष्ट्वा इयं गौः इति वक्तुं न शक्नोति. तर्हि तादृशसमानानां धर्मः अस्ति सामान्यम् इत्यावत्पर्यन्तं वयं प्राप्तवन्तः. अधुना दशमे पुटे एकत्र अनेकजातीनां वृत्तित्वनिरूपणम् इति अस्ति. अस्य माध्यमेन अपरं सामान्यम् इत्युक्ते किं, परं सामान्यम् इत्युक्ते किम् इति जानीमः. रामप्रिया भगिनी पठति वा?
आं भगिनी, पठामि. श्रूयते किल?
हा, एकनिमिष. केनचित् आगतम् अधुना?
नमस्कारः भगिनि, अजितः.
आमाम्, अजितः महोदय. अस्तु अस्तु भगिनि.
आम्, एकत्र अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रत्याह परम् अपरं च इति द्विविधं सामान्यम् इति दर्शितरीत्या सामान्यं सिद्धं. तत्र इदमुक्तं भवति, पुस्तके पुस्तकत्वं सामान्यम् अस्ति, तदेव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, अतः तत्र पृथिवीत्वं जातिः वर्तते. पुस्तके पूर्वोक्तरीत्या गुणः गुणोऽस्ति इति तद् द्रव्यम् अपि, अतः तत्र द्रव्यत्वं जातिः अपि अस्ति. अत्र परम् अपरम् इति सामान्यस्य द्विविधम् अस्ति इति उक्तमस्ति. पूर्वं वयं सामान्यम् इति इत्युक्ते किम् इति सिद्धितवन्तः. अत्र पुस्तके सामान्यम् इति पुस्तकत्वम् इति सामान्यमस्ति, पुस्तके पृथ्वीत्वम् इति अपि जातिः वर्तते. किमर्थम् इत्युक्ते पुस्तकं पार्थिवद्रव्यं, तत्र पृथ्वीत्वम् इति जातिः अपि वर्तते. पुस्तके गुणः अपि अस्ति, अतः तत्र द्रव्यत्वम् इति अपि जातिः अस्ति. अतः पुस्तके पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम्.
हा, समीचीनमस्ति. सामान्यम् इत्युक्ते जातिः, समानक समानार्थकशब्दौ उभौ अपि स्तः इति मनसि भवेत्। तर्हि पुस्तके जातित्रयम् अथवा तिस्रः जातयः, अस्तु, पुस्तकत्वं, पृथ्वीत्वं, द्रव्यत्वं। तद्वत् अग्रिमचित्रं किञ्चित् निरूपयतु भगिनि, किम् अस्ति तत्र इति, नीलरूपे किम् इति इत्यादिकम्।
नीलरूपे समानरीत्या नीलरूपे नीलत्वम् इति जातिः, रूपत्वम् अपि अस्ति, गुण रूपत्वम् इति गुणः, गुणत्वम् इति अपि अस्ति।
हा, इति अस्ति। तर्हि ततः ततः उपरितनभागे तस्मिन् परिच्छेदे एकः बिन्दुः अस्ति, परन्तु शब्दोऽपि वर्णः इति व्यवहारः वर्तते, अतः वर्णः इत्युक्तौ संशयः भवति, अतः इतः वर्णे रूपम् इति व्यवहरामः। इत्युक्ते नीलरूपम् इति स्वीकृतं खलु, तस्य अर्थः अस्ति नीलवर्णः इति। अस्माकं व्यवहारार्थं न्यायशास्त्रे वर्णः इत्युक्ते रूपम्, अथवा चक्षुषा यद्गृह्यते कस्यचिदपि रूपं तादृशम् अस्ति इति, यतोहि अक्षरम् इति अस्ति खलु वर्णमालायां, तस्यापि वर्णः इति व्यवहारः अस्ति। संशयः मा भवतु इति कृत्वा न्यायशास्त्रे वर्णः रूपम् इति स्वीक्रियते। अस्तु भगिनि, अग्रे किमस्ति तस्मिन्नेव चित्रे?
तस्मिन्नेव चित्रे उक्षेपणकर्म इति अस्ति। तत्र उक्षेपणत्वम् इति उक्षेपणकर्म कर्मायाम् अस्ति, कर्मणि अस्ति, क्षम्यतां, कर्मत्वं कर्मत्वम् अपि अस्ति, कर्मत्वं
हा कर्मत्वम् अपि अस्ति। समीचीनं। तर्हि अत्र त्रयः पदार्थाः प्रदर्शिताः। एकं तु अस्ति पुस्तकम् इति, पुस्तकं द्रव्यस्य श्रेण्याम् आगच्छति, तर्हि पुस्तकमिति द्रव्यं, नीलरूपं गुणः, गुणस्य श्रेण्याम् इति तत्र गुणत्वं, पुनः उत्क्षेपणकर्म कर्मणि आगच्छति इति तत्र कर्मत्वम् अस्ति इति वयं दृष्टवन्तः। अन्ततो गत्वा एकस्मिन् पदार्थे बह्व्यः जातयः भवितुम् अर्हन्ति इति अत्र अस्ति। अस्य आधारेण इदानीं परम् अपरं सामान्यम् इत्युक्ते किम् इति जानीमः। मध्ये केन केन आगतं तदभ्यन्तरे, अजितमहोदयस्य अनन्तरं?
वर्धिनी अस्मि।
वर्धिनी भगिनी, अनन्तरं?
नमस्ते, अहं सुनीलः।
सुनीलः महोदय, अस्तु अस्तु, इदानीं सरला भगिनी अग्रे पठति वा? सत्ता।
आं भगिनि, सत्ता अतिरिक्ता जाति इति निरूपणं, सत्ता विभिन्न विलक्षणजाति अस्ति, तस्य निरूपणम् इदानीं भवति। परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत् गुण सन् कर्म सत् इति द्रव्यगुणकर्मणामपि एकविधं ज्ञानं वर्तते। एवं च शाबलेयः गौ, बाहुलेयः गौ इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्धयति तथा द्रव्यं सत् गुण सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जाति सिद्धयति, सत् भाव धर्म सता अतिरिक्ता जाति।
सतः भावः धर्मः सत्ता,
सत्ता अतिरिक्ता जातिः। यथा पूर्वं वयं पठितवन्तः द्रव्ये गुणे कर्मणि सामान्यं ज्ञानम् अस्ति, तथा यथा शाबलेय गौ, बाहुलेय गौ इति एकविधज्ञानम् अस्ति, सर्वेषु गोषु गोत्वं सिद्ध्यति, तथा सत्ता किम् अस्ति, यथा वयं से द्रव्यं सत् द्रव्यम् अस्ति, त्वम् अस्ति, अहम् अस्मि, सा अस्ति इति, तद्वेव द्रव्यं सद्गुण गुण इति पुल्लिङ्गशब्दः अस्ति, तस्य गुण सन् शत्ररूपम् अस्ति, कर्म नपुसङ्कलङ्ग अस्ति तस्य कर्म सत्. सो तस्मिन् तेषु एकविधा जाति वा भाव सति तस्य नाम अस्ति सता.
हा समीचीनं, सत्ता एकाकारप्रतीतिः यत्र यत्र भवति, यथा भगिनी अपि उक्तवती अयम् इयं शाबलेयः गौः, इयं बाहुलेयः गौः. गौः गौः इति उक्त्वा एकविधप्रतीतिः यत्र भवति तत्र गोत्वं यथा सिद्ध्यति, तद्वत् सत् अथवा सन् इत्यनेन सत्ता इति एका अतिरिक्ता जातिः अथवा सामान्यं सिद्ध्यति. अपि च अत्र वक्तव्यमस्ति यत् सत्ता इति पारिभाषिकशब्दः, सत्ता इति केवलं द्रव्ये गुणे कर्मणि स्वीक्रियते न्यायशास्त्रे. अस्तु, सामान्य लौकिकभाषायां सत्ता इत्युक्ते अस्तित्वम् इति भवति खलु. अस्तु, तथा न
भगिनि, शाबलेयः बाहुलेयः इत्युक्ते,
शाबलेयः इत्युक्ते स्पाटेड् अथवा तस्मिन् स्पाट्स् भवति खलु,
बाहुलेयः
ब्लाक् कृष्णः. अस्तु, इदानीं सरला भगिनी, तत्र द्रव्ये सत्ता, गुणे सत्ता, कर्मणि सत्ता इति प्रदर्शितम्. अन्य कापि जातिः अस्ति वा द्रव्यगुणकर्मसु?
द्रव्ये द्रव्यत्वं, गुणे गुणत्वं, कर्मणि कर्मत्वं, जाति सन्ति, जातयः सन्ति.
हा, जातयः तु सन्ति एव,
परन्तु द्रव्ये केवलं द्रव्यत्वम् अस्ति, गुणे गुणत्वम् अस्ति, किन्तु द्रव्ये सत्ता अपि द्रव्यत्वम् अपि अस्ति, तथा सत्ता सर्वे पदार्थेषु अस्ति, किन्तु द्रव्यत्वं गुणे नास्ति, कर्मणि नास्ति, गुणत्वं द्रव्ये नास्ति, कर्मणि नास्ति, किन्तु सत्ता सर्वेषु पदार्थेषु इति समानजाति अस्ति.
समीचीनं, सत्ता इति बहुषु वर्तते, किन्तु द्रव्यत्वं गुणत्वं कर्मत्वम् इत्येषां सीमा अस्ति खलु. अस्तु, अग्रिमपरिच्छेदं पठतु, तदा ज्ञायते किमर्थम् एतत् सर्वं.
सत्ताया परत्ववर्णनं तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया, स एव परा जाति, परं सामान्यं, परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि, सः अर्थ. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते, परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते, परन्तु द्रव्ये नास्ति, तत्र अपि सत्ता वर्तते. एवं कर्मत्वस्य अपि तथा च जगति एकशतं द्रव्याणि, एकसहस्रं गुणाः, पञ्चशतकर्माणि चेत् एकशतं द्रव्यत्वम्, एकसहस्रं गुणत्वं, पञ्चशतकर्मत्वं, षट्शत अधिकम् एकसहस्रं सता. अत्र दत्तमस्ति सता अधिकेषु द्रव्ये पदार्थेषु वर्तते, तत्र यदि सामान्यम् अस्ति अधिकानि तस्य भावः भवति परसत्ता, यदि न्यूनेषु पदार्थेषु वर्तते तस्य भावः अपरं भवति. सो अत्र सत्ता यदि उदाहरणम् अस्ति एकदश द्रव्याणि, एकशतं द्रव्याणि, एकसहस्रगुणाः, पञ्चशत कर्मणः अस्ति, तत्र सत्ता एकसहस्र
इत्युक्ते
अधिकानि भवति,
सत्यम्, अधिकेषु पदार्थेषु सत्ता भवति, सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति कृत्वा कीदृशी जातिः सत्ता?
परं जाति भवति, पराजाति,
पराजातिः भवति सत्ता अथवा परं सामान्यं सत्तायाः अपेक्षया द्रव्यत्वं गुणत्वं कर्मत्वम् इति कीदृशः
अपरा भवति ते न्यूनेषु भवति सत्तायाः अपेक्षा द्रव्यत्वं न्यूना अपरा भवति गुणत्वम् अपरा भवति कर्मत्वम् अपरा भवति
हा समीचीनम् इत्येव वार्ता अस्ति अपरा जातिः इत्युक्ते न्यूनेषु वर्तते परा जातिः इत्युक्ते बहुषु
अधिकेषु
हा अधिकदेशवृत्तिः परा न्यूनदेशवृत्तिः अपरा तद्वदेव पृथ्वीत्वम् अपि च द्रव्यत्वं पुस्तकत्वम् एतान् स्वीकृत्य अपि वक्तुं शक्नुमः पृथ्वीत्वा अपेक्षया द्रव्यत्वम् इति पराजाति
द्रव्यत्वं पराजाति पुस्तकत्वम् अपराजाति तथैव नीलरूपगुणत्वं पराजाति भवति नीलरूपम् अपराजाति भवति
अपि हा समीचीनं भगिनि अभ्यासं कुर्मः करपत्रं पश्यन्तु प्रथमकरपत्रं सामान्यम् इति अस्ति खलु चित्ररूपेण तत्र प्रायः सर्वेषां मनसि भवति चित्ररूपेण अस्ति चेत् पुष्प भगिनि करपत्रं पश्यति वा पुष्प भगिनी अस्ति किम्
अस्मि भगिनि सत्ता द्रव्यत्वं पृथ्वी
इदानीं किञ्चित् वर्णनं करोतु यथा सरला भगिनी उक्तवती
पुस्तके पुस्तकत्वम् अस्ति पुस्तकत्वम् अपि पृथ्वीत्वम् अपि द्रव्यत्वम् अस्ति तत् सर्वेपि सत्ता अस्ति
एकनिमिषं पुस्तके
पुस्तकत्वम् अस्ति
कति जातयः आहत्य
पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वं सत्ता अस्ति
इदानीं यथा सरला भगिनी वक्तुम् आरब्धवती पुस्तकत्वस्य अपेक्षया पृथ्वीत्वम् अपरा तथा वक्तव्यमस्ति वदति वा
पुस्तकत्वस्य अपरा अस्ति न
पुस्तकत्वस्य अपेक्षया पृथ्वीत्वम् अपरा
परम् अस्ति
अपरं सामान्यम् अथवा अपरा क्षम्यताम् पुस्तकत्वस्य अपेक्षया पृथ्वीत्वं परा जातिः पृथ्वीत्वस्य अपेक्षया द्रव्यत्वं परा जातिः द्रव्यत्वस्य अपेक्षया सत्ता इति परा जातिः तथा या कापि जातिः बहुषु वर्तते सा परा जातिः अग्रे चित्रं
नीलरूपे नीलत्वं सति रूपत्वं अपराजातिः
एकनिमिष रूपत्वं पराजातिः बृहान् जातिः बृहती जातिः खलु रूपत्वं
रूपत्वं पराजातिः गुणत्वं तु पराजातिः
रूपत्वस्य अपेक्षया एकनिमिष रूपत्वस्य अपेक्षया गुणत्वम् अपराजातिः
अपराजातिः तत्तु सत्ता परत्वम् अस्ति
सत्ता सर्वेषाम् अपेक्षया सत्ता सर्वासाम् अपेक्षया
परत्वम् अस्ति
पराजातिः अग्रे
एकनिमिष किम् अभवत् अस्तु अग्रे सत्ताः अस्ति उत्क्षेपणकर्मणि उत्क्षेपणत्वस्य अपेक्षया कर्मत्वं पराजातिः सत्ता न अपराजातिः न
भगिनी पराजातिः इत्युक्ते बृहती जातिः खलु इति भगिनी पठितवती
बृहति
अधिकरणानि अधिकानि कर्मत्वस्य अपेक्षया
सत्ता परत्वमस्ति
सत्ता पराजातिः
पराजातिः
अस्तु इति अस्ति परत्वापरत्वस्य परिचयः इतः अग्रे तर्हि एतावत्पर्यन्तं वयं कान् पदार्थान् निरूपितवन्तः इत्युक्ते द्रव्यगुणकर्म सामान्यं सामान्ये परम् अपरम् इति सामान्यम् अग्रिमपदार्थः अस्ति विशेषः इति पुस्तके पठति वा भगिनि अग्रिमपरिच्छेदं नित्यद्रव्यवृत्तयो विशेषाः अनन्ताः एव
द्रव्यत्वादीनां नित्यद्रव्यवृत्तयो वृत्तयः विशेषास्त्वनन्ता एव विशेषाः न
विशेषाः तु अनन्ताः एव तु
अनन्ता एव इति विशेषः निरूपितः गुणकर्मणः कर्मणोः निरूपणावसरे पर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तम् विशेषविषये इत्थं वक्तव्यम् अयं वैशेषिकैः एव अङ्गीक्रियते नैयायिकैः च अनुमन्यते अन्येषु शास्त्रेषु तस्य खण्डनम् एव अस्ति एवं विधः अयं इदोयं विशेषपदार्थः इति सर्वजनसिद्धजातिपदार्थानन्तरं निरूपितः नित्यद्रव्यवर्तयोः विशेषः तु अनन्ता एव इति उच्यते इति विशेषः निरूपितः तत्तु विशेषस्य निरूपणं विषयं चर्चा गुणकर्मणः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति इत्युक्तं केचन गुणकर्मणः एतद् न अङ्गीकुर्वन्ति
एकनिमिषः
केचन आचार्याः न अङ्गीकुर्वन्ति
एकनिमिषः वदामि अत्र वयं दृष्टवन्तः पौर्वापर्यविचारः इत्युक्ते पूर्वः परः इति अस्ति खलु तस्य भावः पौर्वापर्यः इति गुणकर्मणः विषये तत्र यत्र वयं द्रव्यं दृष्टवन्तः सर्वे पदार्थाः द्रव्यमाश्रित्य तिष्ठन्ति इति कृत्वा द्रव्यस्य निरूपणं प्रथमं सञ्जातं खलु एकं वाक्यं वयं दृष्टवन्तः द्रव्याणि पृथिव्यप्तेजवायु आकाश कालादि इत्यादिकं दृष्टवन्तः प्रथमं द्रव्यनिरूपणं यतोहि सर्वे पदार्थाः द्रव्यमाश्रित्य तिष्ठन्ति इति ततः अग्रे गुणस्य निरूपणं जातं रूपरसगन्धस्पर्शसङ्ख्या इति चतुर्विंशतिगुणाः निरूपिताः अत्र किमर्थम् इति चेत् गुणस्य अस्तित्वस्य विषये मतभेदः नास्ति सर्वे आचार्याः अङ्गीकुर्वन्ति इत्युक्ते नैयायिकाः वैशेषिकाः ये केऽपि भवन्तु सिद्धान्तिनः ते सर्वे गुणः इति कश्चन पदार्थः अस्ति इति अङ्गीकुर्वन्ति परन्तु वयं तत्र पठितवन्तः खलु तत्र सप्तमे पुटे सर्वम् अस्ति सप्तमे पुटे अस्तु कर्मणः विषये वैमत्यम् अथवा मतभेदः अस्ति कर्म इति कश्चन पदार्थः भवतु न वा इति खलु इत्येव अत्र उक्तं गुणकर्मणोः निरूपणावसरे पौर्वापर्यविचारे कर्म केचन आचार्याः न अङ्गीकुर्वन्ति, किन्तु विशेषविषये इत्थं वक्तव्यं. किं वक्तव्यम्?
इत्थं वक्तव्यं तु विशेषः निरूपितः न.
हा, विषय अत्र अस्ति यत् विशेष वैशेषिकैरेव अङ्गीक्रियते, नैयायिकैः च अनुमन्यते. अत्र विशेषः अत्र टिप्पणी अस्ति पुस्तकस्य अधोभागे, तस्य पृष्ठस्य अधोभागे. कणादः इति वैशेषिकशास्त्रस्य प्रणेता आचार्य अस्ति, अस्तु. इत्युक्ते तेन कणादेन अथवा वैशेषिकैः विशेषः इति पदार्थः प्रणीतः अथवा प्रतिपादितः. अधुना वैशेषिकाः पदार्थनिरूपणपराः इति उच्यते, इत्युक्ते वैशेषिकानां नैपुण्यं तत्र अस्ति पदार्थनिरूपणे, अस्तु. नैयायिकाः तु प्रमाणपराः, प्रमाणस्य दानार्थं. वयम् अग्रे गत्वा पश्यामः खलु, पश्यन्तः स्मः एव, लक्षणवाक्ये लक्षणवाक्यम् एवमस्ति चेत् किमर्थं तथा अस्ति इत्यादीनां प्रमाणं नैयायिकाः ददन्ति. अतः वैशेषिकः पदार्थनिरूपणे निपुणाः सन्ति इति कृत्वा तैः यः पदार्थः निरूपितः सः पदार्थः नैयायिकैः अपि अनुमन्यन्ते इति उक्तमस्ति, तावदेव.
नैयादिकैः सह अस्तु ते अपि अङ्गीकुर्वन्ति
इति अस्ति, अस्तु. अतः एवंविधविशेषपदार्थः सर्वजनसिद्धपदार्थानन्तरं जातिपदार्थानन्तरं निरूपितः. जाति इति कश्चन पदार्थः अस्ति इति तु सर्वैः अङ्गीक्रियते, तत्र मतभेदः किमपि नास्ति. अतः तादृशक्रमः अस्ति, द्रव्यगुणकर्म, सामान्यम् अथवा जातिः, तदनन्तरं विशेषः इति. अपि च विशेषः तु नित्यद्रव्यवृत्तिः. अधुना नित्यद्रव्याणि कानि कानि?
नित्यद्रव्यः नित्यद्रव्यः पृथ्वी, जलं न,
न
तेजः,
न एकनिमिष, पृथ्वी, जलं, तेजः, वायुः, तावत्पर्यन्तम् अनित्यद्रव्याणि, अस्तु. ततः अग्रे
आकाशः कालः धिक् आत्मा मनः नित्यद्रव्याणि
इति वयं जानीमः. अधुना परमाणूनां विषयः आगतः. अत्र उक्तमस्ति विशेषाः अनन्ताः. अनन्ताः इत्युक्ते अजस्राः, इन्फैनैट् इति. तर्हि कुत्र वर्तन्ते इन्फैनैट् इत्युक्ते कुत्र कुत्र वर्तन्ते इति प्रश्ने आगते सति परमाणूनां विषयः आगतः. परमाणवः अपि अनन्ताः नित्यद्रव्याणि. अपि च न्यायशास्त्रे परमाणुः कीदृशपदार्थः इत्यस्य अवगमनार्थं चित्रं पश्यन्तु. तत्र अग्रिम त्रयोदशे पुटे उपरितनचित्रं पश्यन्ति वा?
का पाषाणः?
हा, तत्र सावित्री भगिनी किञ्चित् तस्य वर्णनं करोति वा? सावित्री भगिनी अस्ति किम्?
ओ अस्तु अस्तु, इदानीं श्रूयते वा?
आं श्रूयते श्रूयते.
तत्र दर्शितमस्ति, प्रथमम् एकं पाषाणं स्वीकुर्मः, क पाषाणः इति, तस्य खण्डनं कुर्मः, पाषाणद्वयं भवति, ग पाषाणः, घ पाषाणः, तस्य पुनः खण्डनं कुर्मः चेत् च पाषाणः, छ पाषाणः आगच्छति. पुनः पुनः खण्डनेन अधो गत्वा त पाषाणः, थ पाषाणः इति भवति. अनन्तरम् एकः समयः आगच्छति यत् यदा पुनः पाषाणस्य खण्डनं न भवति, इत्युक्ते अतिसूक्ष्मः अभवत् तस्य खण्डनम् असाध्यं भवति. तदेव तत्र दर्शितमस्ति, यदा क पाषाणः पाषाणः भिन्नः इति वदामः चेत् कथं वदामः भिन्नः इत्युक्ते तेषाम् अवयवान् दृष्ट्वा एव वदामः. अवयवा भिन्नाः भवति चेत् पाषाणः भिन्नः इति. प्रथमे अपि च द्वितीयचित्रे इति अस्ति.
हा, प्रथमचित्रे भवती यदुक्तवती अवयवभेदात् पाषाणखण्डयोः भेदः भवति. पाषाणः इत्युक्ते शिलाखण्डः, तावदेव. इदानीम् अस्माकं पुरतः घटद्वयम् अस्ति इति चिन्तयन्तु. अस्तु, घटस्य आकारः समानः, वर्णः अथवा रूपं समानं, सर्वं समानम् अस्ति. किन्तु एकः घटः अपरस्मात् भिन्नः एव. न्यायशास्त्रे तादृशी प्रतीतिः अस्ति. परस्परं भिन्नाः सर्वे पदार्थाः. किमर्थम् इति चेत् एकस्य घटस्य अवयवाः कपालादयः. कपालः घटस्य अवयवः खलु. एकस्य घटस्य कपालौ भिन्नौ, अपरस्य कपालौ भिन्नौ. सः एव सिद्धान्तः अत्रापि. एकस्य पाषाणस्य द्वौ ग अथवा घ इति अवयवौ भिन्नौ. पुनः ग पाषाणस्य अवयवौ भिन्नौ इति कृत्वा यावत् पर्यन्तम् अवयवाः भवन्ति तावत् पर्यन्तम् अवयवं दृष्ट्वा अस्तु अयं पदार्थः भिन्नः अपरस्मात् इति वक्तुं शक्नुमः. किन्तु यत्र यदा यथा भगिनी सूचितवती, एकः खण्डनं कृत्वा कृत्वा एकः समयः आगच्छति यस्मिन् समये पुनः खण्डनम् अशक्यं भवति. पुनः खण्डनम् अशक्यं भवति इत्युक्ते अवयवाः न सन्ति इति अर्थः खलु. तस्मिन् स्तरे यः पदार्थः भवति सः परमाणुः इति उच्यते, यस्य पुनः पुनः खण्डनं न भवितुम् अर्हति. तर्हि परमाणुषु अवयवः न सन्ति चेत् भेदज्ञापनं कथं भवति इति प्रश्नः इति अग्रिमपरिच्छेदः. सावित्री भगिनी एव पठति वा?
अस्तु. एते परम्परं तत्र वा? एते परस्परं भिन्ना इति वयं ज्ञातुं शक्नुमः. कथं? प्रत्येकम् अवयवभेदेन, तथा च यस्य यस्य अवयवाः वर्तन्ते तस्य तस्य भेदज्ञानम् अवयवभेदेन भवति. परन्तु चरमशकलस्य परमाणोः यस्य अवयवः न वर्तते तस्य तादृशमेव यत् अन्यत् शकलं परमाणुः, तस्य च परस्परं भेदज्ञानं कथं भवेत्? अतः तादृशज्ञानसम्पादनाय कणादमहर्षिणा विशेष इति पदार्थः स्वीकृतः. एते च विशेषाः यावन्तः परमाणवः तावत्सङ्ख्यकाः सन्ति इत्यपि स्वीक्रियते. यथा प्रत्येकम् आत्मनः एकैकं मनः इति मनोनिरूपणे वक्ष्यते, तथा अत्रापि प्रत्येकं परमाणोः विभिन्नः विशेषः.
अग्रिम पङ्क्तिद्वयं पठतु. च परमाणुः
स परमाणुतः भिन्नः. कुतः? स विशेषस्य स एव आश्रयः, न तु च परमाणुः. एवं विपरीतम् अपि ज्ञातव्यम्. तथा च
अस्तु भगिनि, एतावत् पर्यन्तम्
अस्तु. यथा भवती उक्तवती, यावत्पर्यन्तं शकल अथवा पाषाणस्य खण्डनं भवति तावत्पर्यन्तं वक्तुं शक्नुमः अयं पाषाणः अन्यत् पाषाणात् भिन्नः. इत्युक्ते तेषाम् अवयवाः भिन्नाः, तदर्थं पाषाणः भिन्नः. अवयवभेदात् पाषाणस्य भिन्नता अथवा भेदं स्थापयितुं शक्नुमः. परन्तु यदा चरमशकलं भवति यस्य खण्डनं पुनः कर्तुं न शक्नुमः, तदा सर्वे शकलाः एकविधः एव भवति. तेषाम् अवयवाः न सन्ति खलु. तदा कथं वा भेदं स्थापयितुं शक्नुमः परमाणोः मध्ये इति प्रश्नः. यस्य खण्डनं न भवति तस्य नाम अस्ति परमाणुः. येषां खण्डनं न भवति तस्य भेद तेषां मध्ये भिन्नस्थापनाय विशेषः इति पदार्थः स्वीकृतः. प्रत्येकस्य परमाणस्य परमाणोः एकः एव विशेषः वर्तते. किमर्थं चेत् तस्य विशेषस्य एकः एव अधिकरणं भवति, स एव परमाणुः. अन्यस्य परमाणोः भिन्नः विशेषः भवति. तथा भेदस्थापनं कर्तुं शक्यते.
हा हा, समीचीनम् इति अस्ति. परमाणुस्तरे अथवा नित्यद्रव्येषु भेदस्थापनाय यत्र अवयवः न भवन्ति अवयवाः, तत्र विशेषः इति पदार्थः आवश्यकः. न्यायशास्त्रे वयं पश्यामः यत् नैयायिकाः अपि लाघवम् इच्छन्ति. अस्तु, यदि षट्सु पदार्थेषु लोकस्य अथवा विश्वस्य सर्वाणि वस्तूनि अन्तर्भूतानि भवन्ति चेत् अस्तु, षट् पदार्थाः एव पर्याप्तम् इति. पञ्चसु भवन्ति चेत् अस्तु, तदेव पर्याप्तम् इति. तदर्थमेव एतानि कारणानि दत्तानि. विशेषः अन्यतमः पदार्थः किमर्थं स्यात् इत्युक्ते अत्र तस्य आवश्यकता अस्ति. निरवयविपरमाणुः नाम यस्य अवयवः नास्ति, तादृशेषु स्थलेषु भेदस्थापनाय विशेषः इति कश्चन पदार्थः आवश्यकः इति. अत्र कोऽपि प्रश्नः वा कस्यचित्?
प्रश्नः नास्ति, किन्तु एकं विषयं वक्तुम् इच्छामि. अत्र विशेषः इति पदार्थः पारिभाषिकशब्दः इति वयम् अवगन्तव्यं, नो चेत् नीलघटः इति स्थिते नीलमिति रूपं विशेषणं भवति, घटः विशेष्यं भवति. तदपेक्षया अत्र विशेषः इति पारिभाषिकशब्दः भिन्न इति वयं मनसि स्थातव्यं, मनसि स्थातव्यम् इति अहं वक्तुम्.
हा, इति तु सत्यमेव. विशेषः इति अत्र पारिभाषिकशब्दः अस्ति. अस्तु, समीचीनं.
अनन्तरं किञ्चित् वयं परापरसाधनं कृतवन्तः किल, तत्र अन्तिम वाक्यमस्ति, परं सत्ता अपरं पटत्वादि पृथिवीत्वादि परापरम् इति तदर्थः.
अस्तु,
तत्रापि एकमेव एका एव जातिः परा, तत् सत्ता. पटत्वादिजातिः सर्वदा अपरम् एव. किमर्थम् इत्युक्ते तत्र पटत्वे पटत्वमेव अस्ति, अन्यत् किमपि नास्ति. अतः तादृश जातयः तादृशा जातयः सर्वदा अपरा एव. किन्तु पृथिव्यादि यत्र द्रव्यत्वम् अस्ति नास्ति, पृथिव्यत्वम् अस्ति अनन्तरं पटत्वमपि अस्ति, तादृश जातयः तादृशा जातयः परापरम् इति द्वयमपि द्विसंज्ञामपि प्राप्तुमर्हति इति.
हा हा, धन्यवादः धन्यवादः महोदय. आम्, इदानीं स्मरामि, अस्माकं तेषु दिनेषु वर्गे मूलवर्गे चर्चितमासीत्. सत्यमेव, पटत्वम् इत्यस्य अपेक्षया सर्वाः जातयः अपराः इति खलु.
हा
हा,
तत् मुख्यांशः. किमर्थमित्युक्ते अनन्तरं यदा वयं चर्चां कुर्मः तत्र सत्ता इति बहु मुख्यं भवति, अतः एतदपि मनसि स्थातव्यम्.
हा आम् आम्, समीचीनमेव. तद्वदेव, घटत्वं पुस्तकत्वं यत्किमपि भवतु तथा एव भवति इति मन्ये, अपरमेव भवति इति. पुनः पुस्तके वा पुस्तकत्वे अथवा पटत्वे उपजातिं कल्पयितुं न शक्नुमः इति कृत्वा खलु.
केवलं वृत्तयः एव नास्ति, किन्तु यस्मिन् यस्यां जात्याम् एकमेव जातिः अस्ति तत् सर्वदा अपरमेव भवति.
अस्तु अस्तु अस्तु
यस्यां जात्यां सर्व जातित्वम् अन्तर् सर्व
इति हा अवगच्छामः महोदय सेट् इव सेट् वा सब्सेट् इव इति अस्ति अन्ततो गत्वा ततः न्यूनीकरणं न भवति इति चेत् अपरं जातिः अपरं सामान्यं समीचीनं हा अस्तु महोदय अग्रे पठति वा त्रयोदशे पुटे तथा च इत्यस्मात् आरभ्य
तथा च विशेष अस्वीकारेण परमाणूनां परस्परभेदज्ञानं वयं सम्पादयितुं प्रभवामः यथा परमाणोः अवयवाः नास्ति तथैव आकाशादिद्रव्याणामपि अवयवाः न सन्ति अतः परस्परभेदज्ञानाय आकाशादावपि विशेष अपेक्षा वर्तते परमाणुः नित्यः आकाशादयश्च नित्याः इति सर्वेषु नित्येषु द्रव्येषु विशेषः सिध्यति इति एतत् सर्वम् अभिसन्धायोक्तं नित्यद्रव्यवृत्तयोः विशेषाः अनन्ताः परमाणवः नित्यद्रव्याणि च तावन्तः विशेषाः इति तेषाम् आनन्त्यमपि सिध्यति इत्युक्ते यस्य वस्तोः अवयवः नास्ति तेषां मध्ये भेदज्ञानं प्रापणार्थं विशेषः इति पदार्थः कणादमहर्षिणा कल्पितं तत् विशेषम् इति पदार्थद्वारेण एव भेदज्ञानं तयोः मध्ये भेदज्ञानं तयोः इत्युक्ते येषाम् अवयविनां मध्ये येषाम् अवयविनां
निरवयवि
हा निरवयि वदतु भगिनि
निरवयविनां मध्ये तावदेव
हा निरवयिनां मध्ये भेदज्ञानं प्रापणाय विशेषः इति पदार्थं पदार्थस्य कल्पनम् आवश्यकता अस्ति किन्तु आकाशादिद्रव्याणामपि आकाशः काल दिक् मनः आत्मा एते सर्वाणि एतानि सर्वाणि द्रव्याणि अपि नित्यद्रव्याणि एव एतयोः मध्ये भेदज्ञानं वयं अवगन्तव्यम् अतः तेषां मध्येपि यद्यपि आकाशः एकः एव किन्तु तत् नित्यः आत्मा मनः एतयोः भिन्नः अतः तस्य भेदज्ञानं प्रापणाय तत्रापि विशेषम् इति पदार्थं विशेष अपेक्षा वर्तते इति दत्तमस्ति
सम्यक् महोदय धन्यवादः तर्हि आकाशाः यथा वयं जानीमः आकाशः अपि निरवयवी यथा महोदयेनापि उक्तं तस्य अवयवाः न सन्ति कालस्यापि न आत्मनः अपि अवयवाः न सन्ति मनसः अपि न सन्ति खलु महोदय
आम् किन्तु आकाशः एकमेव कालः अपि एकमेव किन्तु आत्मा मनस् दिक् अहं सम्यक् न जानामि ते बहवः सन्ति यद्यपि ते बहवः सन्ति तदापि तेषाम् अवयवः नास्ति अनन्तरं नित्यमपि ते
अग्रे अस्मिन् एव ग्रन्थे अग्रे अस्ति दिक् इति वस्तुतः निरवयवी एव नित्यः विभू च
तस्मिन्नपि किन्तु एकं वा बहवः
हा बह्व्यः दिशः सन्ति इति तु सत्यं यतोहि उपाधिभेदेन दिशि तादृशभेदः आगच्छति इति उपाधिभेदेन इत्युक्ते
अत्र पञ्चपदानां पञ्चपदार्थानां मध्ये पञ्चपदार्थानाम् इत्युक्ते आकाश काल दिक् मन आत्मा एतेषां मध्ये आकाशः कालः एते द्वयोः एव एकम्, अन्यत् त्रयमपि बहु वर्तते.
हा हा, इति सत्यं. व्यवहारार्थं बहवः इति वक्तुं शक्नुमः, यतोहि बहवः आत्मानः अथवा बहूनि मनांसि. सत्यं, बहूनि मनांसि इति वक्तुं शक्यते, परन्तु तत्र शरीरः उपाधि भवति खलु. यद्यपि आकाशः यथा कालः अपि एकः एव, किन्तु अस्माकं मनुष्याणां व्यवहारार्थम् उपाधिं कल्पयित्वा सूर्यास्तः इति एका क्रिया उपाधि, सूर्योदयः इति एका क्रिया. हा, तद्वदेव दिशः इति अपि चिन्तयामि.
दिशः प्रायशः तादृशं भवितुम् अर्हति, किन्तु मनः आत्मा साक्षात् भिन्नः एव, अनेकाः एव.
हा, सत्यं सत्यं.
उपाधिदृष्ट्या न, येषां मते ते भिन्ना एव, अनेकाः एव.
अनेकाः, परन्तु अनेकत्वे सति अपि तत्र अवयवाः न सन्ति इति कृत्वा विशेषः तेषु अपि स्वीक्रियते. अस्तु अस्तु, समीचीनम् इति एव वार्ता अस्ति. अस्तु, तर्हि विशेषः नित्यद्रव्यवृत्तिः अस्ति. अस्तु, अस्माकं
तद्विशेषम् एकमपि, विशेषमिति पदार्थं तदपि अनेकाः आनन्त्य, तस्य आनन्त्यम् अपि अस्ति. एकैकस्य नित्यपदार्थस्य एकैकविशेषणमस्ति. यावत् नित्यपदार्थाः सन्ति तावद् विशेषाः सन्ति इत्यपि वयम् अवगन्तुं.
हा हा, सत्यं सत्यं. सत्यं, परमाणवः, मनांसि, एतानि हा सर्वाणि द्रव्याणि तु अनन्तानि एव, अनन्ताः पदार्थाः, तर्हि विशेषाः अनन्ताः इति. तर्हि अस्माकं शनिवासरस्य वर्गे केचन प्रश्नाः आगताः आसन् यदा अत्र वयं आस्म तदा, एवमेव अत्रापि प्रस्तौमि. तर्हि आकाशे आकाशत्वम् इति अस्ति खलु, आकाशे आकाशत्वं जातिः अस्ति न वा? लक्ष्मीभगिनी किं वदति?
आकाशे आकाशत्वम् इति धर्मः अस्ति, किन्तु जाति यदि जाति अपि सर्वदा धर्मः जाति न भवति किल.
किमर्थम्
किमर्थम् इत्युक्ते धर्मः पुस्तकत्वम् इति स्वीक्रियते चेत् पुस्तकत्वं धर्मः अपि जाति अपि, किन्तु आकाशत्वं यदि जाति अपि स्वीक्रियते चेत् प्रायः अनेकः आकाशः वर्तते इति भासते. तत् सत्यं नास्ति इति अहं
सूचयामि. समीचीनं भगिनि, तर्कः सम्यक् एव. तर्हि किमर्थं सामान्यम् इत्यस्य परिभाषा का आसीत्?
समानानां धर्मः सामान्यं, किन्तु अनेकः आकाशः तत्र नास्ति.
अनेके आकाशाः न सन्ति इति कृत्वा तादृशप्रतीतिः न आगच्छति एव आकाशस्य विषये. समानानाम् इति वक्तुम् आकाशस्य समानाः कुत्र सन्ति? नास्ति खलु, न सन्ति. अतः पुस्तके पुस्तकत्वम् इति जातिः धर्मः अपि, पुस्तकस्य धर्मः पुस्तकत्वम्, अपि च पुस्तकस्य समानानि सन्ति. लघुपुस्तकं भवतु, बृहत् पुस्तकं भवतु, दृष्ट्वा वयं जानीमः एतदपि पुस्तकं तदपि पुस्तकम् इति. तादृशसमानाः आकाशस्य नास्ति इति कृत्वा, न सन्ति इति कृत्वा आकाशे आकाशत्वम् इति केवलं धर्मः अथवा स्वभावः, न तु जातिः इति एकः विचारः. इदानीम् अपरः एकः प्रश्नः आगतः आसीत् तस्मिन् वर्गे, यद् धर्मः इति वदामः, वारं वारं वदन्तः स्मः धर्मः स्वभावः इति. तर्हि धर्मः इति कीदृशपदार्थः इति? न्यायशास्त्रे तु सप्तपदार्थाः सन्ति, द्रव्य, गुण, कर्म, सामान्यं, विशेषः, समवायः, अभावः इति. धर्मः कुत्र अन्तर्भवति इति किमपि चिन्तनं कस्यचित्?
गुणे एकम् अस्ति खलु,
गुणे अस्ति इति
गुणेषु धर्मः एकं
हा 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 सम्यक् भगिनि इति गतवर्गे अपि प्रायः लक्ष्मी भगिनी उक्तवती इति भाति अधिकरणता इति कीदृशपदार्थः इति चिन्तनम् आगतं तत्र अधिकरणता इति धर्मः अधिकरणानां धर्मः खलु अतः सामान्यम् इत्यस्मिन् अन्तर्गच्छति अधिकरणता किन्तु अधुना धर्मः इति चतुर्विंशतिगुणेषु अन्यतमः यः अस्ति धर्मः अधर्मः इति तौ गुणौ समानानां धर्मः इति इत्यस्यां श्रेण्यां न आगच्छन्ति सः तु भिन्नः एव प्रायः करपत्रे वयं पठितवन्तः इति भाति यद् कश्चन सुखी अस्ति जीवने केन कारणेन इति न जानीमः तस्य सः धर्मं कृतवान् इति वदामः कश्चन दुःखी अस्ति चेत् अधर्मं कृतवान् तादृशः अस्ति धर्मः अधर्मः इति परन्तु अत्र यं धर्मं स्वीकृत्य वयं चर्चां कुर्वन्तः स्मः इत्युक्ते स्वभावः इति तादृशधर्मः कुत्र अन्तर्गच्छति प्रश्नः
समवायः वक्तुं शक्नुमः भगिनि किमर्थं चेत् धर्मः यद्यपि द्रव्यं नश्यति धर्मः न नश्यति इति कृत्वा स्वभावः न नश्यति इति कृत्वा समवायः
हा समवायस्य सीमा अस्ति खलु अग्रे पश्यामः अग्रिमपदार्थः समवायः एव गुणगुणिनोः अवयव अवयविनोः समवायः एकविधसम्बन्धः अस्ति
समवायसम्बन्धम् अस्ति पुस्तकत्वं पुस्तके समवायसम्बन्धेन न समवायसम्बन्धेन
अस्ति 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 तर्हि किं जातं तत्र पुस्तकमस्ति पुस्तकत्वमस्ति तयोः मध्ये समवायः अन्ततो गत्वा त्रयः पदार्थाः सञ्जाताः खलु पुस्तकं पुस्तकत्वं समवायः तर्हि अस्माकं प्रश्नः अस्ति कुत्र स्थापयितुं शक्नुमः धर्मः इति पदार्थं कुत्र तस्य अन्तर्भावः इति शुकवनमहोदय किं वदति
तादृशप्रश्नम् असमीचीनम् इति अहं चिन्तयामि किमर्थमित्युक्ते धर्मः इति केवलं वयं सम्भाषणे प्रयुज्यन्ति किन्तु धर्मः इति वयम् अस्माकं विवक्षा किम् इत्युक्ते यत्र द्रव्यत्वं यत्र द्रव्यं पश्यामश्चेत् तत्र द्रव्यत्वम् इति धर्मः यस्य अस्ति तत् द्रव्यम् इति वदामः गुणं गुणत्वं यस्मिन् गुणे गुणत्वम् इति धर्मः द्रव्यत्वम् इति धर्मः कर्मत्वम् इति धर्मः इति वयं केवलं व्यवह्रियते किन्तु व्यवहरन्ति किन्तु धर्मः इति पदार्थं
अस्तु
इति अहं चिन्तयामि
परन्तु यानि उदाहरणानि भवता दत्तानि इत्युक्ते गुणत्वं द्रव्यत्वं कर्मत्वं तानि सामान्यम् इत्यस्यां श्रेण्यां गच्छन्ति यतोहि समानानां धर्मः सामान्यं परन्तु आकाशत्वस्य तादृशः नास्ति आकाशस्य यः धर्मः सः जातिः इति न केवलं धर्मः तदर्थं जातिः भवति चेत् अस्माकं सौकर्यमस्ति सामान्यम् इति वक्तुं शक्नुमः तर्हि आकाशत्वं कुत्र अन्तर्भवति इति प्रश्नः एव
चिन्तनम् अस्ति भगिनि धर्मः अधर्मः ये गुणाः सन्ति तेषामेव अन्तर्भवन्ति अत्र धर्मस्य अर्थः एवं नास्ति यत् मनुष्यः एव करणीयम् इति नास्ति मनुष्येण एव कर्तव्यम् इति नास्ति धर्मः पदार्थस्य धर्मः भवति एव अधर्मः मनुष्यः कर्तुं शक्यते परन्तु धर्मः तु सर्वस्य पदार्थस्य भावः एव
अन्ततो गत्वा यदि वयम् आकाशत्वम् इति स्वीकृत्य चतुर्विंशतिगुणाः धर्मः इत्यस्मिन् स्थापयामश्चेत् तर्हि किं भवति आकाशत्वम् इति गुणः भवति इति आगच्छति खलु
आम्
तर्हि धर्मः अपि गुणः इति भवत्याः चिन्तनम्
आम्
इति स्यात् इति चिन्तयामि प्र प्रायः न जाने तर्हि धर्मं तत्र स्थापयामश्चेत् आकाशत्वम् इति गुणः भविष्यति.
आम्, किमर्थं चेत् धर्मः अधर्मः केवलमनुष्येण एव करणीयम् इति न्यायशास्त्रस्य चिन्तनं नास्ति
इति. हा, इति वयं प्रायः तस्य विषये न पठितवन्तः एतावत् पर्यन्तम्. एवमेव स्थूलरीत्या कस्मिंश्चित् करपत्रे आसीत् धर्मः
उदाहरणत्वेन आसीत्, परन्तु निश्चयेन एवमेव भवतु इति न.
एतावत्पर्यन्तं न पठितवन्तः इति. अस्तु, तर्हि प्रश्नः भवतु सर्वेषां मनसि, चिन्तनं कुर्वन्तु, कदाचित् प्राप्नुमः इति भाति उत्तरम्. अस्तु, तर्हि इतः अग्रे सरेम. भारती भगिनी पठति वा?
पठामि भगिनि. सर्व समवायसाधनप्रकारः इति वा?
सत्यम्.
द्रव्यादित्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायः निरूपयति. द्रव्यगुणाः कर्मणि त्रिकं निरूप्य सामान्यविशेषौ निरूपितौ, ततः समवायः निरूपयति. समवायः अग्रे आगच्छति
इत्युक्ते द्रव्यादित्रिकं द्रव्यगुणकर्मनिरूप्य सामान्यविशेषौ तस्यापि निरूपणं, तयोः निरूपणं जातम्. अधुना समवायः अग्रे.
समवायसत्त्वक समवायः तु एक एव इति. इत्थं हि समवाय साधनम् आहुः. कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ स्तः, ततः पुरुषस्य नमस्कार इच्छा भवति, ततः हस्तयोः क्रियया तयोः संयोगः उत्पद्यते. एवं च पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः. समवाय इत्युक्ते वयम् उदाहरणं दत्तम्. एकः पुरुषस्य हस्तौ संयुक्तः भवति.
एकनिमिष, अस्माकं हस्तौ सर्वदा संयुक्तौ भवतः इति वा?
सर्वदा इन् डिस्टेन्स् संयुक्तौ भवतः.
इदानीं तत्र द्वितीयवाक्यं किमस्ति? कस्यचित् पुरुषस्य हस्तौ स्वस्थानस्थितौ इत्युक्ते भगिनि?
इत्युक्ते वामः हस्तौ तथा एव भवति, दक्षिण हस्तौ हस्तः तथैव वर्तते. हस्तौ टुगेदर् जातौ तथा संयोगः क्रिया भवति.
हा, पुरुषस्य नमस्कारेच्छा भवति. यः कोऽपि पुरुषः सः नमस्कारं कर्तुम् इच्छति, तदा एव यौ हस्तौ पृथक् पृथक् स्तः तौ
एक भागे वर्तते नमस्कार इच्छा भवति चेत्.
हा, समीचीनम्. इत्युक्ते पृथक् पृथक् हस्तौ एकत्र आगतौ
भवति. आगतौ तथा संयोगः जायते.
हा, समीचीनं. तर्हि संयोगः इति कश्चन सम्बन्धः कयोः मध्ये भवति?
एकयोः संयोगः संयोगः इति सम्बन्धः संयोगः इति सम्बन्धः द्रव्यं द्रव्य द्रव्ययोः भवति
हा द्रव्ययोः मध्ये भवति यथा हस्तः एकः हस्तः अपि द्रव्यम् अपरः अपि द्रव्यं तयोः मध्ये संयोगः भवति उत्पीठिका पुस्तकं तयोः मध्ये संयोगः भवति तादृशसम्बन्धः अस्ति संयोगः तादृश अस्तु अत्र अन्तिमवाक्यं किम् अस्ति एवं च
पूर्वं विविक्तौ भिन्नस्थानस्थितौ हस्तौ संयुक्तौ भवतः
हा इति विशेषः अस्ति अत्र संयोगसम्बन्धस्य पूर्वं न आसीत् सम्बन्धः खलु यदा हस्तौ विविक्तौ आस्तां तदा तु संयोगः न आसीत् परन्तु यदा एकत्र आगच्छतु इति कस्यचित् मनसि इच्छा अस्ति तदा भिन्नस्थानस्थितौ हस्तौ संयुक्तौ अथवा तयोः मध्ये संयोगः जातः सः संयोगः सर्वदा भवति वा
सर्वदा इच्छा भवति चेत्
हा इत्युक्ते सर्वदा न भवति संयोगः खलु हा तर्हि संयोगः तादृशसम्बन्धः अस्ति सर्वदा न भवति कदाचित् भवति कदाचित् नश्यति तादृश सम्बन्धः अस्ति इति संयोगः परन्तु समवायः कीदृशः इति द्रष्टव्यम् अस्तु प्रथमबिन्दुं पठतु अग्रे
परन्तु घटोत्पत्ति यत्र भवति तत्र कपालद्वयसंयोगानन्तरम् एवं कदाचित् भवेत् वा यत् घटः अन्यत्र स्थितः कपालः अन्यत्र ततः कपालद्वयसंयोगानन्तरम् उभयोरपि सम्बन्धः किम् परन्तु घटोत्पत्तिसमये कपालद्वयसंयोग अस्ति चेत् घट उत्पत्तिः भवति यत् घटः अन्यत्र भवति कपालः अन्यत्र ततः कपालद्वयसंयोगानन्तरं न भवति
समीचीनं भगिनि इति नास्ति अत्र प्रश्नः अस्ति यत् अस्तु प्रथमं तु कपालद्वयम् आसीत् अस्तु कपालद्वयस्य संयोगानन्तरं घटः इति नूतनपदार्थः जातः तर्हि लोके तादृशी स्थितिः कुत्रचित् दृष्टं वा दृष्टा वा यत्र कपालः भिन्नः भिन्नस्थले घटः भिन्नस्थले तथा दृष्टा वा स्थितिः
नास्ति
हा नास्ति खलु यदि कपालः भिन्नः अभवत् चेत् घटः भग्नः भवति अस्तु तर्हि कपालद्वयसंयोगः भवति कपालयोः मध्ये संयोगः अस्ति इति तु सत्यं परन्तु कपालघटयोः मध्ये कीदृशसम्बन्धः इति वार्ता अत्र
कपालघटयोः सम्बन्धः समवायसम्बन्धः
समवायसम्बन्धः एव इति अग्रे पश्येम प्रश्नः मनसि भवेत् प्रश्नः कः इति प्रथमतया घटः कपालः अनयोः कीदृशसम्बन्धः इति संयोगसम्बन्धः नास्ति इति जानीमः खलु यतोहि संयोगसम्बन्धः नित्यः नास्ति इति कृत्वा अस्तु इति एकम् उदाहरणमस्ति समवायः कुत्र भवति इति अग्रे पठेम कुत्र कुत्र समवायः दृश्यते इति रविमहोदय पठति वा रविमहोदय अस्ति किम् अग्रे महोदय चतुर्दशे पुटे स्मः द्वितीयबिन्दुं पठतु
घटस्य तद्रूपस्य अपि च एवमेव चिन्तनीयं किं घटं विहाय अन्यत्र आश्रयं विना स्थितं रूपं घटेन सह सम्बद्धम् इति सम्भाव्यते
अवगतम् किञ्चित् प्रयत्नं करोति वा आरम्भतः पठित्वा? आरम्भतः पठतु महोदय.
घटस्य तद्रूपस्य अपि च एवमेव चिन्तनीयम्
इत्युक्ते घटः अस्तु, घटः अस्ति, तद्रूपः इत्युक्ते घटस्य रूपः, तद् इत्युक्ते तत्र घटः इति, घटस्य अपि च घटरूपस्य एवमेव परिस्थितिः, यथा भारती भगिनी पठितवती तत्र आसीत् खलु, घटः कपालः अनयोः परस्परभेदः न कदापि भवितुमर्हति. वियोगः भवति चेत् घटः एव नष्टः भवति. तर्हि अत्रापि तादृशी स्थितिः तयोः मध्ये. घटः एव अस्ति, न कदापि पृथक् कर्तुं शक्नुमः खलु. घटः एकस्मिन् प्रकोष्ठे, प्रकोष्ठः इत्युक्ते रूम् इति चिन्तयतु, घटः एकस्मिन् प्रकोष्ठे घटस्य रूपं, नीलरूपं, रक्तरूपं, यत्किमपि भवतु, तद् अपरस्मिन् प्रकोष्ठे इति तादृशी स्थितिः कुत्रचित् दृष्टा अस्ति वा? किं चिन्तयति?
अन्यत्र न भवति, एकमेव स्थाने भवति.
सत्यं सत्यं. तर्हि तयोः मध्ये कीदृशसम्बन्धः इति चिन्तनीयम्. अग्रे अग्रिमबिन्दुं पठतु.
बिलस्य मुखे सर्पः वर्तते, तस्य प्रसर्पणरूपा क्रिया तु किञ्चित् अग्रे चलिता इति सम्भाव्यते. एतदेव अपि न सम्भाव्यते.
अत्र उदाहरणं किम्?
क्रिया कर्ता, कर्ता
सर्पः खलु,
सर्पे अस्ति,
सर्पे अस्ति. नाम इदानीं चिन्तयतु, भवान् वदन् अस्ति, भवान् वदति अस्तु, भवति इत्युक्ते भवतः शरीरे अथवा कुत्रचित् तत्र वदनक्रिया अस्ति, भवान् वदन् अस्ति इति कृत्वा. तर्हि अत्र प्रश्नः अस्ति, भवान् एकत्र, भवतः वदनक्रिया अपरत्र इति तादृशी स्थितिः अस्ति वा इति? न खलु. हा, परन्तु तत्र हस्तयोः मध्ये तादृशी स्थितिः सम्भाव्यते, इत्युक्ते सम्भावना अस्ति. हस्तौ एकत्र भवितुम् अर्हतः, अपरत्रापि भवितुम् अर्हतः खलु. हा, इति चिन्तनीयमस्ति. अस्तु, तर्हि एतानि उदाहरणानि यानि अस्माभिः अधुना पठितानि, तत्र वयं पश्यामः यत् उभयोः वस्तुनोः पार्थक्यम् अथवा पृथक्त्वं न भवति एव. घटः अपि च कपालः तत् पृथक् न कर्तुं शक्नुमः, घटः अपि च घटस्य रूपं पृथक् न कर्तुं शक्नुमः, पुनः बिले सर्पः अस्ति, सर्पे प्रसर्पणक्रिया अस्ति, तयोः पार्थक्यं न भवति इति. अग्रिमबिन्दुं पठतु.
एकस्मिन् हृदे घटः पतितः, घटः हृदतलं गतः, घटत्वं तु जलोपरि तरति इति दृष्टं वा केनचित्?
समीचीनम्. हृदे घटः अस्तु, तर्हि इदानीं घटः कुत्र गतः?
घटः हृदतलं गतः. हृदे
हा, हृदतलं घटः इत्युक्ते तलम् इत्युक्ते बाटम्, तावदेव. घटः हृदतलं गतः इति चिन्तयतु. घटे कश्चन धर्मः अस्ति, यथा पुस्तके पुस्तकत्वम् अस्ति, तथा घटे किम् अस्ति? घटत्वं. तर्हि जीवने तादृशी स्थितिः कुत्रचित् दृष्टं वा, यत्र घटः ह्रदतले घटत्वं जलस्य उपरि तादृशी स्थितिः कुत्रचित् दृष्टं
न भवति
हा न भवति इति चिन्तनीयम् एतेषु विषयेषु किमर्थं न भवति किमर्थं न भवति चेत् तर्हि द्वयोः वस्तुनोः मध्ये कीदृशसम्बन्धः इति सर्वं चिन्तनीयम् अस्तु अग्रे पठतु
सर्वेषां प्रश्नानां न इति एव समाधानम् अतः घटस्य कपालं विहाय रूपस्य घटं विहाय प्रसर्पणस्य सर्पं विहाय घटत्वस्य घटं विहाय कदाचिदपि अदर्शनात् नूनं तेषां सम्बन्धः न संयोगः एतेषु पदार्थेषु पदार्थे तस्मिन् मध्ये एकः सम्बन्धः अस्ति तत् संयोगः नास्ति
समीचीनं महोदय यतोहि एकं विहाय अपरः स्थातुमेव न शक्नोति खलु इति तदर्थं संयोगः नास्ति तर्हि अग्रे
कुतः पूर्वं प्राप्तयोः विविक्तयोः या प्राप्तिः स संयोगः इति उच्यते विविक्तयोः इत्यस्य अर्थः किं
विविक्तः इत्युक्ते वियोगः वियोगः इति जानाति खलु पृथक् हस्तस्य स्थितिः तथा आसीत् खलु हस्तयोः स्थितिः पूर्वं विविक्तौ तदनन्तरम् एकत्र प्राप्तिः अतः तयोः मध्ये संयोगः परन्तु एतेषु उदाहरणेषु यद् भवता अपि च भारती भगिन्या पठितं तत्र न कदापि पार्थक्यम् अथवा वियोगः भवति खलु अतः नूतनसम्बन्धः आवश्यकः सः सम्बन्धः समवायः एव अग्रिमे चित्रे कुत्र कुत्र समवायः भवति इति प्रदर्शितमस्ति लक्ष्मी भगिनी किञ्चित् चित्रं विवृणोति वा
आं भगिनि प्रथमं द्रव्यं तत्र द्रव्ययोः मध्ये संयोगसम्बन्धः किन्तु द्रव्यगुणयोः मध्ये समवायसम्बन्धः द्रव्यक्रियायोः मध्ये अपि समवायसम्बन्धः द्रव्यगुणगुणकर्म इत्येषां अपि च सामान्यं तयोः मध्ये अपि समवायसम्बन्धः नित्यद्रव्यविशेषः तयोः मध्ये समवायसम्बन्धः यतोहि यदि गुणः स्वीक्रियते चेत् गुणः द्रव्यं विना गुणः न भवति द्रव्यस्य द्रव्यम् आश्रितः गुणः भवति द्रव्यम् आश्रित्य गुणः भवति अतः द्रव्यगुणयोः मध्ये समवायसम्बन्धः न कदापि संयोगसम्बन्धः गुणः अन्यस्थले द्रव्यं अथवा घटः एकस्थले घटरूपम् अन्यस्थले इति तथा न भवितुमर्हति अतः द्रव्यगुणयोः मध्ये समवायसम्बन्धः तथैव स्थितिः द्रव्यक्रियोः मध्ये अत्रैव उदाहरणमस्ति प्रसर्पणक्रिया सर्पः
अस्तु भगिनि एवं करोतु तत् भवती यद्वदन्ति अस्ति तद् अधोभागे चित्रद्वये अस्ति अस्तु तर्हि कुत्र हा तस्य अधोभागे साक्षात् अधोभागे एव
अस्तु अस्तु कपालात् अवयवाः घटात् अवयविनः अस्तु घटः इति अवयविनि तस्य अवयवः कपालः घटः भिन्नस्थले कपालः भिन्नस्थले इति तथा न भवितुमर्हति. अतः यत्र अवयवः अवयविनः इति सम्बन्धः अस्ति तत्र समवायसम्बन्धः अवयव अवयविनोः मध्ये. तथैव द्रव्यगुणवत् रूपादिगुणः आम् इदानीमेव रूपद्रव्ययोः मध्ये रूपादिगुणाः मध्ये द्रव्ययोः मध्ये समवायसम्बन्धः एव भवितुमर्हति इति इदानीमेव उक्तम्. अनन्तरं द्रव्यं क्रियावत् उत्क्षेपणादिक्रिया अत्र अत्रापि उत्क्षेपणादिक्रिया यदि कन्दुकम् उपरि उत्क्षेप्यते चेत् उत्क्षेपमाणः तथा तदानीं कन्दुकः अन्यस्थले उत्क्षेपणम् अन्यस्थले तथा न भवितुमर्हति. अतः क्रिया क्रियाद्रव्येण सम्बन्धः अस्ति तत् सम्बन्धः समवायसम्बन्धः तयोः मध्ये पार्थक्यं न कल्पयितुं शक्यते. अनन्तरम् अन्तिमस्तरे घटादिव्यक्तिः जातिमति घटत्वजातिः. अस्तु, घटत्वमिति जातिः स्वीक्रियते चेत् तत्र अनेकाः घटाः सन्ति प्रत्येकं घटव्यक्ति तत्र तत्रापि समवायसम्बन्धः इत्युक्ते जातिव्यक्त्योः मध्ये समवायसम्बन्धः जाति इति सामान्यं जातिश्रेण्यम् अनेकाः व्यक्तयः सन्ति जातिव्यक्ति इति यथा अवयवः मध्ये गुणिगुणिनो मध्ये इति तथैव जातिव्यक्त्यो मध्ये अपि समवायसम्बन्धः. अनन्तरं नित्यद्रव्याणि विशेषः तत्रापि नित्यद्रव्याणि विशेषः इति पदार्थः नित्यद्रव्ययोः मध्ये भेदः कल्पयितुं प्रत्येकं नित्यद्रव्यस्य प्रत्येकं नित्यद्रव्यं तेन प्रत्येकं नित्यद्रव्यं तत्र तस्य विशेषः इति पदार्थः कल्प्यते यस्मात् अन्यनित्यद्रव्यात् भेदः ज्ञायते.
अस्तु, नित्यद्रव्ये विशेषः केन सम्बन्धेन अस्ति?
समवायसम्बन्धेन अस्ति.
समवायसम्बन्धेन अस्ति. तर्हि एतेषु पञ्चसु स्थलेषु, अस्तु, कपालः घटः इत्युक्ते अवयवी घटः, अवयवः कपालः, तत्र एरो दृश्य पश्यन्तु, शरः, अधोगामिनी शरः अस्ति. तस्य अर्थः अस्ति यत् घटः कपाले वर्तते, रूपं द्रव्ये वर्तते, उत्क्षेपणक्रिया द्रव्ये वर्तते, आश्रयः कः इति प्रदर्शितम्. घटाद्यवयविनः आश्रयः कपालाद्यवयवाः तथा. तर्हि तयोः तेषां मध्ये पञ्च उदाहरणानि यानि अत्र दत्तानि, पञ्चस्थलेषु अपि समवायः इति सम्बन्धः, संयोगसम्बन्धात् भिन्नः इति अस्ति. अस्तु, अग्रिमपरिच्छेदं पठतु भगिनि.
सः सम्बन्धः एव समवायः. अवयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः च अयमेव समवायसम्बन्धः. तत्र आश्रयाणाम् आधेयानां च नानात्वे अपि लाघवात् अयं समवाय एक एव इति स्वीक्रियते. अस्तु, अस्तु, इदानीमेव दृष्टवन्तः कीदृशसम्बन्धः समवायसम्बन्धः इति. अवयवः अवयवादिनो अवयविनोः गुणगुणिनोः क्रियाक्रियावतारोः जातिव्यक्तयोः विशेषनित्यद्रव्ययोः मध्ये समवायसम्बन्धः वर्तते. अत्र आश्रयाणाम् आधेयानाम् आश्रयः भिन्नः अस्ति, आदेयः भिन्नः अस्ति. यथा द्रव्यरू घटरूपं, तत्र आश्रयः घटः अस्ति, घटरूपम् आदेयः. तयोः नानात्वे अपि ते तयोः भिन्नत्वम् अस्ति चेदपि लाघवात् तयोः मध्ये समवायम् इति एकः एव पदार्थः, समवायसम्बन्धः इति एकः एव पदार्थः अस्ति इति स्वीक्रियते.
हा, इति वार्ता अस्ति. यथा संयोगः भिन्नभिन्नस्थले भिन्नभिन्नस्थलेषु भिन्नभिन्नसंयोगः इति अस्ति खलु, तथा नास्ति. नैयायिकानां मतानुगुणं समवायः एकः एव, यद्यपि समवायः पञ्चसु स्थलेषु लभ्यते, यथा अवयवावयविनोः गुणगुणिनोः क्रियाक्रियवतोः. तत्र आश्रयाणाम् आधेयानां भेदः अस्ति, नानात्वम् अस्ति, तथापि सर्वेषु स्थलेषु समवायः एकः एव इति स्वीक्रियते, संयोगवत् भिन्नभिन्नाः इति नास्ति इति वार्ता. तदर्थम् अत्र उक्तं तस्य वाक्ये निरूपणसन्दर्भे समवायस्तु एक एव इति, समवायस्त्वेक एव. अत्र कोऽपि प्रश्नः वा?
भगिनी, प्रश्नः नास्ति, किन्तु एतादृशमपि वक्तुं शक्यते किल, तत् चित्रं घटाद्यवयवीनिष्ठ आधेयता निरूपित अधिकरणताश्रयः कपालाद्य अवयवाः.
आमाम्, अवश्यं.
रूपादिगुणनिष्ठगुणत्वनिरूपितगुणवान् द्रव्यं,
गुणवान् द्रव्यम्. आं महोदय, तत्र सर्वत्र यत्र यत्र आधाराधेयभावः अस्ति तत्र यथा भवानेव सूचितवान् अधिकरणता आधेयता तयोः मध्ये निरूपकनिरूप्यभावः अस्ति एव इति तु वक्तुं शक्यते. अस्तु, अजितमहोदय अग्रे.
लाघवगौरवस्वरूपं तत्र खलु, लाघवगौरवस्वरूपं लाघव नाम विचारसौकर्यम् एवं चिन्तयामः. कश्चित् आपणं गन्तुं प्रवृत्तः, तस्य माता तं प्रति अवदत् गुडं तण्डुलान् चाहर, सः ओम् इत्युक्त्वा निर्गतः. तदैव तस्य भार्या समागत्याः शार्करं शाकं सर्षवान् सर्पान् विद्युद्दीपं पुस्तिकां पेटिकाम् आलम् 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 न प्रभवामि इमानि सर्वाणि बुद्धौ स्थापयितुम्, अतः सर्वं विलिख्य देहि इति सः भार्यां प्रति अब्रवीत्. अत्र पश्यतु, पूर्वं क्षम्यता, अत्र पश्यतु, पूर्वं मात्रा द्वयमेवोक्तं तदा अङ्गीकृत्य प्रवृत्तः तदा हरणाय, ततः भार्यया पञ्चशाः पदार्थाः उक्ताः तदा निवार्य भाषाणात् विलिख्य देहीति वक्ति. को हेतुः? विचारे धारणे च वा सौकर्यं, द्वित्राणां बुद्धौ स्थापने क्लेशः न भवति, अनेकेषां स्थापने भवति. इदमेव विचारसौकर्यं लाघवमित्युच्यते, तद्विपरीतम् असौकर्यं गौरवमित्युच्यते. तथा च आश्रयणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवमेति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते. अस्तु, तत्र लाघवं गौरवम् इति रागगौरव इत्युक्ते यथा तत्र उदाहरणे वयं दृष्टवन्तः पदार्थद्वयम् अस्ति चेत् तत्र मनसि स्थापयित्वा क्रियां कर्तुं शक्यते, परन्तु अनेकानि वस्तूनि सन्ति चेत् तत्र किञ्चित् क्लेशः भवति. तदेव लाघवं गौरवम् इति पदद्वन्द्वं सूचयिष्यति.
इत्युक्ते लाघवम् इत्युक्ते विचारसौकर्यं, यथा भवता उक्तं मनसि निधाय कर्तुं शक्नोति, विचारस्य सौकर्यमस्ति. यदि आवली बृहती जाता, शर्करा शाकं सर्प सर्पविद्युद्दीपं सर्वं सर्वम् उक्तवती भार्या, तदा विचारमनसि स्थातुं सौकर्यं नासीत्, तदेव गौरवम् असौकर्यं. विचारसौकर्यं नास्ति किन्तु असौकर्यमेव गौरवम् इति. एतद् उदाहरणं किमर्थं ददति ते?
एतत् उदाहरणम् इत्युक्ते
अन्तिमवाक्यं पठतु.
तथा च आशयाणाम् आधेयानां च अनेकत्वेन समवायस्यापि अनेकत्वस्वीकारे गौरवमिति लाघवाय विचारसौकर्याय एक एव समवायः इत्यङ्गीक्रियते. तत्र आश्रयाधेयभावे यदि अनेकसमवायस्य समवाय
अस्तु महोदय, पञ्चदशे पुटे भगिनी लक्ष्मी भगिनी तत्र निरूपितवती खलु चित्रद्वयं, कपाले घटः अस्ति, द्रव्ये रूपादिगुणाः सन्ति, क्रियावत् द्रव्ये उत्क्षेपणादिक्रियाः सन्ति, अपि च किं घटादिजातौ घटादिव्यक्तिः जातौ अस्ति खलु, नित्यद्रव्ये विशेषः अस्ति इत्यत्र सर्वत्र एकमेव आश्रयः इति वा, एकः एव आश्रयः इति वा?
अनेकानि आश्रयाणि सन्ति.
अनेके आश्रयाः सन्ति
सर्वत्र इत्युक्ते
वदतु महोदय.
न, एकस्मिन् सन्दर्भे एकमेव आश्रयः, किन्तु
इति सत्यं
मिलित्वा अनेकानि.
हा, इति सत्यमेव, एकस्मिन् सन्दर्भे एकः एव आश्रयः, परन्तु प्रत्येकम् आश्रये, प्रत्येकस्मिन् आश्रये अथवा प्रत्येकस्मिन् अधिकरणे अथवा अपि च आधेये अपि, आधेयाः अपि भिन्नाः, प्रत्येकस्मिन् आधेये अपि यः समवायसम्बन्धः अस्ति सः एकः एव सम्बन्धः. इत्युक्ते संयोगस्थले वयं दृष्टवन्तः घटपटयोः संयोगः भिन्नः, पुस्तक उत्पीठिकयोः संयोगः भिन्नः, हस्तयोः संयोगः भिन्नः इति वयं पठितवन्तः खलु. तादृशी स्थितिः अत्र नास्ति, समवायः यत्र कुत्रापि भवतु एकः एव समवायः. तादृशं किमर्थं स्वीकृतम् इत्युक्ते विचारसौकर्याय इति वदन्ति अत्र. सौलभ्यार्थम् एकः एव समवायः उच्यताम्.
एकमेव समवायः इति अङ्गीक्रियते लाघवाय विचारसौकर्याय.
हा, विचारसौकर्याय नाम तत्र महोदयेन अपि उदाहरणं दत्तमासीत्, इदानीं जगति भ्रातरः सन्ति खलु, ब्रदर्स् सर्वेषु विश्वे सर्वत्र सन्ति, भ्रातृत्वम् इति एकः एव सम्बन्धः. इत्युक्ते मम अपि च मम भ्रातुः मध्ये भिन्नः भ्रातृत्वम्, अपरस्य भ्रातरोः मध्ये भिन्नभ्रातृत्वम् इति नास्ति. तद्वत् इदानीं पितृत्वम् इति सम्बन्धः, पुत्रपितृयोः मध्ये तथा अस्ति समवायसम्बन्धः एकः एव, संयोगसम्बन्धः तथा नास्ति. किमर्थं तथा इति सर्वम् अग्रे पश्येम. करपत्रं प्रेषयिष्यामि, तस्मिन् अस्य विषये इतोपि किञ्चित् विस्तरेण दत्तमस्ति, तर्हि कृपया पठन्तु करपत्रम्. अस्तु, इतः अग्रे किञ्चित् कर्तुं शक्नुमः. अभावस्य वर्णनं क्रियते चेत् सप्तपदार्थाः वर्णिताः इति. वर्धिनी भगिनी अग्रे.
अभाववर्णनं एतावत् उद्देशक्रमानुसारेण षड्भावाः निरूपिताः. भावो नाम यः अस्ति इति प्रतीयते. यथा द्रव्यमस्ति, गुणः अस्ति, समवायः अस्ति, ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते समवायं समभावं
समभावः
समभावं परिशीलय.
तम् इति अस्ति भगिनि, तम् अभावं समभावं.
क्षम्यतां, तम् अभावं परिशीलयामः. किञ्चित् भूतलमस्ति, तत्र घटो यदि अस्ति तदा एवं व्यवहरामः. अत्र भूतले घटः अस्ति इति. यदि घटः अपसारितः तदा वदामः अत्र घटः नास्ति. घटः अस्ति इति व्यवहाराय भाषणाय घटः ज्ञातव्यः भवति. तदा घटो नास्ति इति वक्तुं कः ज्ञातव्यो भवति? सः एव अभावः इत्युच्यते. अत्र व्यवहारे अपि अस्ति विशेषः.
न न, अस्मिन् परिच्छेदे किं किम् अस्ति इति सारांशत्वेन.
अत्र अभाववर्णनं क्रियते उद्देश्यक्रमानुसारं षड्भावाः निरूपितः. भावे नाम यः अस्ति इति प्रति
भावाः षड्. द्रव्यगुणकर्म सामान्यं विशेषः समवायः इति षड्भावाः. षड्भावाः अन्तिमपदार्थः अभावः इति.
ते भावाः इति कथ्यन्ते. इदानीं यः नास्ति इति ज्ञायते तम् अभावं परिशीलयामः. किञ्चित् भूतलमस्ति, घटः भूतले घटः अस्ति.
भूतले घटः अस्ति इति तु भावः. अस्तु, इदानीं भूतले घटः नास्ति इति व्यवहारं नैयायिकाः एवं कुर्वन्ति. भूतले घटाभावः इति उक्त्वा अभावपदार्थः अभावः इति इतोपि एकः पदार्थः आवश्यकः इति निरूपयन्ति इति एव अस्ति अस्मिन् परिच्छेदे. नास्ति इति व्यवहारः एव अभावपदार्थेन ते सूचयन्ति नैयायिकाः इति सप्तमपदार्थः.
उदाहरणेन पात्रे कियत् जलमिति.
न, एकनिमिष, कुत्र पठन्ती अस्ति? तत्तु सुनीलमहोदय पठिष्यति. सुनीलमहोदय अस्ति वा? अस्तु, सुनीलमहोदय नास्ति इति भाति. भगिनी पठतु तर्हि.
पात्रे अस्मिन् कियत् जलमस्ति इति पृष्टे अर्धमस्ति इति कश्चित् वक्ति, कश्चित् अर्धं पात्रस्य रिक्तमस्ति इति वक्ति. पात्रं तु तदेव, जलमपि तावदेव. तथापि कश्चित् अस्ति इति वदति, कश्चित् नास्ति इति वदति. तद्वदेव सर्वैः अभावम् अधिकृत्य भूतले घटे नास्ति, घटो नास्ति इति उच्यते. न्यायशास्त्रे नास्ति इति अनुक्त्वा भूतले घटाभावः अस्ति इति उच्यते. नास्ति इति पदस्य अन्यवर्णनं अभावः अस्ति इति
समीचीनं भगिनि. न्यायशास्त्रे तादृशी प्रतीतिः अस्ति. भूतले घटाभावः अस्ति इति वदनं, भूतले घटः नास्ति इत्यस्य स्थाने भूतले घटाभावः अस्ति इति व्यवहारः. अस्तु, इति कृत्वा सप्तपदार्थानामपि वर्णनं सञ्जातं. तर्हि अहं पुनः वदामि यत् अस्मिन् वर्गे बहु स्थूलरीत्या परिशीलनं जायमानम् अस्ति. अहं प्रतिसप्ताहं गृहपाठत्वेन एकं करपत्रम् अथवा किमपि प्रेषयामि. कृपया पठित्वा ये प्रश्नाः भवन्ति पठनसमये कृपया तद् अग्रिमवर्गे चर्चयिष्यामः. तर्हि कृपया गृहे पठन्तु यानि यानि करपत्राणि पठनीयानि तानि. अस्तु
एकः विचारः आगतः. एकं सत् नवद्रव्याणि चतुर्विंशति गुणाः पञ्चकर्मणि सामान्यं द्विविधं समवाय विशेषः अनेकाः समवाय एकः अभावः चत्वारि इति.
सत्यं समीचीनं भगिनि. अभावः चतुर्विधः, तत्तु अग्रे आगच्छति. वस्तुतः एवमेव अभावस्य निरूपणं जातम्. अस्तु, यथा भगिनी उक्तवती तादृशी एव अस्ति संख्या. नवद्रव्याणि गुणः चतुर्विंशतिः, पञ्चकर्माणि इति यद्यपि उक्तं लक्ष्मी भगिनी, तत्र कर्माणि तु अनन्ताः एव.
अस्तु,
प्रतिनिधिरूपेण पञ्चकर्माणि गृहीतानि. अपि च सामान्यं द्विविधम् इति उक्तं, परम् अपरम् इति. किन्तु सामान्यमपि अनन्ताः इति, यावन्ति वस्तूनि सन्ति लोके समानानां धर्मः सामान्यम् इति कृत्वा तत्रापि संख्यायाः सीमा नास्ति. किन्तु वैविध्यम् अस्ति, द्विविधम् अस्ति सामान्यं. विशेषाः तु अनन्ताः. समवायः एव, एकः एव समवायः. अभावस्य चतुर्विधत्वम् अग्रे परिशीलयामः. अस्तु, तर्हि अन्य कोऽपि प्रश्नः अथवा चिन्तनं नास्ति चेत् अस्तु अत्र विरमामः. अद्य
नमस्कारः.
नमस्कारः.
धन्यवादः.
शुभरात्रिः.